सर्वेभ्यो नमः, सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे। तत्र गुरुब्रह्मा गुरुविष्णुगुरुदेवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः। तत्र अस्माकं न्यायवर्गः प्रवर्तते। अद्य तत्र अभावस्य चतुर्विधत्वम् इति अद्यतनविषयः अस्ति, किन्तु तस्मात् प्राक् गतवर्गे यान् विषयान् वयं पठितवन्तः तान् विषयान् आधाय तत्र अशोकमहोदयस्य उपस्थापनं वर्तते। तर्हि कृपया अशोकमहोदय।
श्रूयते वा महोदय?
श्रूयते महोदय, श्रूयते।
अहम् उपाधिः इति शब्दम् आङ्ग्लभाषायां कान्सेप्ट् इति शब्दस्य अर्थेन उपयोगं करोमि। गतवर्गे वयम् अवच्छेदकम् इति उपाधिं पठितवन्तः। एतेन उपाधिना वयं पदार्थानां भेदं ज्ञातुं शक्नुमः, तेषाम् अभावानां भेदं च। सरलास्तु स्थितिषु तु एषः उपाधिः न आवश्यकः। सरलासु स्थितिषु प्रतियोगिनाम् आश्रयभेदादेव पदार्थानां च तेषां प्रतियोगिनां च तेषाम् अभावानां च भेदं ज्ञातुं शक्नुमः। उदाहरणार्थं स्वातिनक्षत्रीयवृष्टिजलाभावस्य प्रतियोगितायाः आश्रयः स्वातिनक्षत्रीयवृष्टिजलम् एव अस्ति। वृष्टिजलाभावस्य प्रतियोगितायाः आश्रयाः सर्वाणि वृष्टिजलानि सन्ति। यतः आश्रयौ भिन्नौ, ततः अभावौ अपि भिन्नौ। यद्यपि अग्रे पठिष्यामः यत् कतिचन स्थितिषु आश्रयभेदं दर्शयितुं कठिनम् इति। एतादृशासु स्थितिषु अवच्छेदकः इति उपाधिः योग्यः अस्ति। कस्यचित् पदार्थस्य अवच्छेदकः तं पदार्थम् अन्यात् पदार्थात् विलक्ष्यति। उदाहरणार्थं जलत्वं जलस्य अवच्छेदकः, वृष्टिजलत्वं तु वृष्टिजलस्य अवच्छेदकः। येन भेदः अवगम्यते सः अवच्छेदकः अपि यस्य भेदः अवगम्यते तत् अवच्छेद्यम्। पुनर्वदामि, येन भेदः अवगम्यते सः अवच्छेदकः अपि तस्य भेदः अवगम्यते तत् अवच्छेद्यम्। उदाहरणार्थं यदि जलत्वम् अवच्छेदकः अस्ति तर्हि जलम् अवच्छेद्यम् अस्ति। यदि वृष्टिजलत्वम् अवच्छेदकः अस्ति तर्हि वृष्टिजलत्वम् अवच्छेदकः अस्ति तर्हि वृष्टिजलम् अवच्छेद्यम् अस्ति। यतः जलस्य च वृष्टिजलस्य च अवच्छेदकौ भिन्नौ, ततः जलं च वृष्टिजलौ च भिन्नौ इति वक्तुं शक्नुमः। यदि वयम् अवच्छेदकः इति वदामः तर्हि अवच्छेद्यः कः इति प्रश्नः वर्तते। अतः अवच्छेदक अवच्छेद्ययोः मध्ये साकाङ्क्षा अस्ति। अथ अवच्छेदक अवच्छेद्ययोः सम्बन्धः न्यायशास्त्रे यथा वर्णितः इति व्याख्यामः। अवच्छेदकः अवच्छेदकतायाः आश्रयः अस्ति। अवच्छेद्यनिष्ठप्रतियोगिता तु अवच्छेद्यतायाः आश्रयः अस्ति। पूर्वे उदाहरणे जलत्वम् अवच्छेदकतायाः आश्रयः अस्ति, जलनिष्ठप्रतियोगिता तु अवच्छेद्यतायाः आश्रयः अस्ति। अवच्छेदक अवच्छेद्ययोः परस्परसाकाङ्क्षा वक्ष्यमाणः रीत्या वदामः। जलनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रय जलनिष्ठ प्रतियोगिता इति एकत्रिंशति चित्रे अभावप्रतियोगिसम्बन्धः विस्तरेण दत्तः पूर्वे एतस्य उदाहरणे अभावः जलनिष्ठप्रतियोगितानिरूपित अनुयोगिता आश्रय जलाभावः इति लघुना वर्णितः एषः प्रथमविषयः इति वदामः जलनिष्ठप्रतियोगितायाः विवरणं जलनिष्ठ अवच्छेदकतानिरूपित अवच्छेद्यता आश्रय जलनिष्ठप्रतियोगिता इति वयं पश्यामः एषः द्वितीयविषयः इति वदामः प्रथमविषयः योग द्वितीयविषयः वक्ष्यमाणवाक्यं ददाति जलनिष्ठ अवच्छेदकतानिरूपित अवच्छेद्यता आश्रय जलनिष्ठप्रतियोगितानिरूपित अनुयोगिता आश्रय जलाभावः एतत् सदृशम् अन्यवाक्यानि लिखितुं शक्नुमः अस्तु महोदय
अस्तु धन्यवादः महोदय समीचीनमस्ति सर्वं प्रतिपादितमस्ति अतः तत्र वयं तत्र अवच्छेदकः अपि अवच्छेद्यम् इति तयोः मध्ये तत्र निरूप्यनिरूपकभावः इति तत्र गतवर्गे ज्ञातवन्तः अपि तेन वयं तत्र भेदः तत्र वयं तत्र किं दृष्टवन्तः स्वातीनक्षत्रीयवृष्टिजले तत्र तिस्रः प्रतियोगिताः सन्ति नाम तत्र सामान्यजलस्य प्रतियोगिता अस्ति वृष्टिजलस्य प्रतियोगिता अस्ति अपि स्वातिनक्षत्रीयवृष्टिजलस्य अभावस्य तत्र सर्वत्र अभावस्य इति स्थापनीयं क्षम्यतं तत्र जलाभावस्य प्रतियोगिता तदनन्तरं तत्र वृष्टिजलाभावस्य प्रतियोगिता अपि स्वातिनक्षत्रीयवृष्टिजलाभावस्य प्रतियोगिता अपि तत्र स्वातिनक्षत्रीयवृष्टिजले वर्तन्ते अतः तत्र तत्र भेदः कथं ज्ञातुं भेदः कः इति कथं ज्ञातुं शक्नुमः इति प्रश्ने सति तत्र अवच्छेदकधर्मेण नाम तत्र प्रथमा प्रतियोगिता तत्र साधारणसामान्यप्रतियोगितायाः तत्र कुत्र कुत्र वर्तते इति तत्र उत्तरं किम् अस्ति तत्र यत्र जलत्वम् इति धर्मेण तत्र वयं जानीमः कुत्र कुत्र वर्तते आश्रयाः के इति अपि वृष्टिजलाभावस्य प्रतियोगिता तत्र कुत्र कुत्र वर्तते इत्युक्ते तत्र वृष्टिजलत्वम् इति धर्मस्य आधारेण जानीमः अतः तत्र अवच्छेदकधर्मः अस्ति तेन वयं प्रतियोगितासु तत्र भेदः साधितुं शक्नुमः इति वार्ता अस्तु अपि तत्र अवच्छेदकधर्मः इति अस्ति अवच्छेदकः अस्ति अवच्छेद्यम् अपि अस्ति तयोः मध्ये निरूपकनिरूप्यभावः अस्ति इति अपि उक्तं तस्य विवरणं तत्र वयं दीर्घवाक्यं कृतवन्तः तादृशं दीर्घवाक्यम् अत्र अपि भवति तत्र इदानीम् अतः तत्र किञ्चिदेव तस्य विषये अस्ति तदनन्तरं तत्र अभावस्य चतुर्विधत्वम् इति अग्रिमविषयः भवति किन्तु तत्र पुटसङ्ख्या अस्ति 26 ततः आरम्भामहे तत्र अस्तु तत्र एतावत् तत्र कः अथवा का न पठितवती एतावत् तत्र अस्तु अस्तु आरम्भं कुर्मः तत्र सुधा भगिनी आरम्भं कर्तुम् इच्छति वा पुटसङ्ख्या अस्ति 26 तत्र उपशीर्षकः अस्ति खलु तत्र ततः आरभ्य
अत्र च इति वा
तथा च न इति तावत् वयं कृतवन्तः वा गतवर्गे 34 पर्यन्तं चित्रं तावत्पर्यन्तं कृतवन्तः तत्र निरूप्यनिरूपकभावः इति तत्र ततः आरभ्य पठतु भगिनि
अस्तु अस्तु निरूप्यनिरूपकभावः अवच्छेद्यावच्छेदकभावः च सर्वत्र भवति अत्र च अभ्यासाय पटसामान्याभावः नीलपटाभावः च ग्राह्यः। तत्र अवच्छेद्यवच्छेदकभावः निरूप्यनिरूपकभावः प्रतियोग्यनियोगी अनियोगीभावः च आलोचनीयः।
भगिनी भवती कुत्र अस्ति तत्र?
पेज् नम्बर् 26 महोदय।
हा तत्र अत्रायं विशेषः इति अस्ति खलु?
तद्वा ओके। निरूप्यनिरूपकभावः अवच्छेद्य अवच्छेदकभावः च सर्वत्र भवति, अत्रायं विशेषः। सम्बन्धः यः कोऽपि अस्तु निरूप्यनिरूपकभावः तत्र अवश्यं भवति, अवच्छेद्य अवच्छेदकभावः च। आधार आदेयभावे इदं चिन्तयामः। पूर्वोक्ते उदाहरणे यज्ञदत्तनिष्ठ आदेयतानिरूपित अधिकरणता आश्रयः आसनम् इत्यत्र आधारता आदेयतयोः निरूप्यनिरूपकभावः यथा वर्तते तथा आदेयतायाः एवम् अधिकरणतायाः समानाधिकरणधर्मस्य च अवच्छेद्य अवच्छेदकभावेऽपि भवति।
हा इति तावत्पर्यन्तम्।
अत्र विशेषः अस्ति यः सम्बन्धः भवति तत्र वयं पूर्वं दृष्टवन्तः इति ससम्बन्धिकशब्दाः मध्ये तु निरूप्यनिरूपकभावः अस्ति एव। अत्र निरूप्यनिरूपकभावः अस्ति चेत् अवच्छेद्य अवच्छेदकभावः अपि भवति, आधार आदेयभावम् अपि भवति। यथा अहं पूर्वम् उदाहरणं दृष्टवन्तः यज्ञदत्तः आदेयता भवति, आसनम् अधिकरणता भवति।
यज्ञदत्त किञ्चित् तत्र एकनिमिषः तत्र यः कोऽपि सम्बन्धः भवतु तत्र निरूप्यनिरूपकभावः अपि अस्ति, अपि अवच्छेद्य अवच्छेदकभावः च भवितुम् अर्हति। हा इति समीचीनम्। इदानीं तत्र आधारता आदेयता तत्र यज्ञदत्तः कः भवति?
यज्ञदत्त आदेयता भवति।
यज्ञदत्तः यज्ञदत्ते आदेयता अस्ति।
यज्ञदत्ते आदेयता अस्ति, यज्ञदत्तनिष्ठ
आदेयता, यज्ञदत्तः आदेयः, स्वयं यज्ञदत्तः आदेयः अपि। आसनम्
अधिकरणं भवति
तस्मिन्
आसने, अधिकरणता वर्तते।
समीचीनं। हा समीचीनम्, इदानीं समीचीनं भगिनि। हा अस्तु। हा
अतः यज्ञदत्तनिष्ठ आदेयता निरूपित अधिकरणता आश्रय आसनम् इति पूर्वमेव वयं दृष्टवन्तः
खलु। हा समीचीनं। हा इदानीं
इदानीम् आधारता आदेयतायाः निरूप्यनिरूपकभावः यथा वर्तते तथा आदेयतायाः एवम् अधिकरणतायाः अपि वर्तते।
हा एवं समानाधिकरण्यधर्मस्य
एवं समानाधिकरणधर्मस्य च अवच्छेद्य अवच्छेदकभावोऽपि भवति।
हा इति अत्र इदानीं तत्र यथा तत्र आदेयता अधिकरणतायोः मध्ये तत्र निरूप्यनिरूपकभावः आसीत् तथैव अत्रापि तत्र अवच्छेद्य अवच्छेदकभावो तयोः मध्ये अपि निरूप्यनिरूपकभावः वर्तते। अतः तत्र इदानीं तत्र चित्रे तत्र किं किम् अस्ति इति किञ्चित् वदतु तत्र।
अस्तु, यज्ञदत्ते यज्ञदत्तत्वम् अस्ति, अतः यज्ञदत्तत्वं निष्ठ अवच्छेदकता निरूपित अवच्छेद्यता
अवच्छेद्यता आश्रयः
अवच्छेद्यता आश्रय यज्ञदत्तनिष्ठ आदेयता निरूपित।
अस्तु पर्यन्तं समीचीनं भगिनि। हा इदानीं तत्र किञ्चित् उत्तममासीत् भगिनि। हा समीचीनम् अस्ति। हा अत्र तत्र विषयः अस्ति तत्र अवच्छेदक अपि अवच्छेद्य अवच्छेदकता अपि अवच्छेद्यता तयोः मध्ये अपि तत्र निरूपनिरूप्यकभावः अस्ति, किन्तु अत्र किञ्चित् भेदः वर्तते, नाम अवच्छेदकधर्मः, तत्र अवच्छेदकः अपि अवच्छेद्यम्, अत्र अस्मिन् उदाहरणे तत्र अवच्छेदकं किम् अपि अवच्छेद्यं किम् अस्मिन् उदाहरणे यज्ञदत्तः इति अस्ति तत्र
यज्ञदत्तत्वम् अस्ति अवच्छेद्यम् इति यज्ञदत्तः अस्ति
न यस्मिन् यथा भगिनि तत्र यथा यस्मिन् अधिकरणता अस्ति तत् सः अथवा तद् यस्मिन् अधिकरणता अस्ति तत् अधिकरणं, यस्मिन् आदेयता अस्ति सः आदेयः अथवा आदेयम् इति खलु. अत्र अवच्छेदकता कुत्र वर्तते? अवच्छेदके वर्तते खलु.
अस्तु,
अतः तत्र अवच्छेदकं किम् अस्ति? यज्ञदत्तत्वम्.
यज्ञदत्तत्वम्
इति समीचीनम् इति उक्तं, भवत्या उक्तं समीचीनम्. इदानीं तथैव अन्यत् भागं पश्यतु, तत्र अवच्छेद्यं किमस्ति? तस्मिन् अवच्छेद्यता भवेत्. अवच्छेद्यता कुत्र अस्ति? अवच्छेद्यता कस्मिन् अस्ति?
यज्ञदत्ते अस्ति.
न अवच्छेदकता उपरि अस्ति खलु तत्र भगिनी, यज्ञदत्तः यज्ञदत्तः इति लिखितम् अस्ति.
अवच्छेद्यता आसने अस्ति.
आदेयतायाम् अस्ति खलु?
आदेयताम् अस्ति. आम्,
आदेयतायाम् अस्ति खलु?
अस्तु.
हा, अतः आदेयता एव तत्र अवच्छेद्या, यतोहि तत्र अवच्छेदकता कुत्र वर्तते? यज्ञदत्तत्वे वर्तते. अतः तत्र अवच्छेदकं यज्ञदत्तत्वम् इति भवती उक्तवती, अवगच्छति खलु?
अस्तु, अवगच्छामि.
तथैव इदानीम् अन्यत् भागं पश्यतु, तत्र उपरि अवच्छेद्यता अस्ति. अवच्छेद्यता कुत्र अस्ति? आदेयतायाम् अस्ति खलु?
आदेयतायाम् अस्ति.
अतः आदेयता एव तत्र अवच्छेद्या. अतः तत्र इदानीं तत्र यज्ञदत्तत्वम् अस्ति, आदेयता अस्ति, एकम् अस्ति तत्र अवच्छेदकम्, अन्यत् अस्ति तत्र अवच्छेद्या इति खलु. किन्तु तत्र यज्ञदत्तत्वम् अस्ति, आदेयता अपि अस्ति, किन्तु तत्र तयोः अधिकरणं किम्, अथवा अधिकरणं तत्र कुत्र यज्ञदत्तत्वम् अस्ति, कुत्र आदेयता अस्ति? यज्ञदत्ते एव तत्र द्वे अपि स्तः इति कृत्वा, यज्ञदत्तत्वमपि यज्ञदत्ते अस्ति, आदेयता अपि कृत्वा, अतः एव तत्र पदमस्ति समानाधिकरणधर्मस्य इति. एकस्मिन् अधिकरणे अस्ति चेत् तत्र समानाधिकरणम् इति वदामः. हा, अतः तत्र समानाधिकरणधर्मस्य तत्र अवच्छेद्य अवच्छेदकभावो अपि भवति, नाम तत्र यज्ञदत्तत्वमपि यज्ञदत्ते अस्ति, आदेयता अपि यज्ञदत्ते अस्ति, तयोः मध्ये अवच्छेद्य अवच्छेदक अवच्छेद्यभावः वर्तते इति. तत्र पूर्वं तत्र अधिकरणं तत्र आदेयता तत्र यज्ञदत्ते आसीत्, अपि तत्र अधिकरणता आसने आसीत् इति तत्र सामानाधिकरणम् इति न वक्तुं शक्नुमः. किन्तु अत्र किम् अस्ति? यज्ञदत्तत्वम् अपि आदेयता यज्ञदत्ते अस्ति, अतः तत्र समानाधिकरणम् इति पदम् अस्ति. हा, समीचीनं भगिनि, धन्यवादः, उत्तममस्ति. हा, अतः तत्र इदानीं तत्र चित्रे किम् अस्ति इति परिशीलयामः, तदनन्तरम् एतादृशवाक्यं वयं कर्तुं शक्नुमः, किन्तु तत्र एकवारं कृत्वा अग्रे सरामः. धन्यवादः भगिनि. अस्तु, अग्रे तत्र सरिता भगिनी तत्र अद्य पठितुम् इच्छति वा? सरिता भगिनी अस्ति वा? अस्तु, हा, श्रूयते भगिनि. हा, श्रूयते.
तथा
भगिनी तत्र एकवारं तत्र चित्रस्य निरूपणं तत्र दत्तमस्ति, तत्र अतः तत्र एकवारं तत्र परिच्छेदद्वयं पठित्वा किञ्चित् विवृणोतु.
तत्र द्वितीय भाग अपचित्रं
न तत्र तथा च निरूप्य निरूपकभावमिति कुत्र पठितवती? तत्र एव
निरूप्य निरूपकभावम् अवच्छेद्य अवच्छेदकभावं च अन्तर्भाव्य यज्ञदत्तः आसने अस्ति इति अत्र इत्थं परिष्कारः भवति.
इदानीम् अग्रिमवाक्यम् अस्ति, एकवारं पठित्वा चित्रम् उपयुज्य किञ्चित् विवृणोतु.
यज्ञदत्तत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रय यज्ञदत्तनिष्ठ आधेयता निरूपित आसनत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रय अधिकरणता आश्रयः आसनम्. तत्र आसनं कथम् अस्ति तस्य वर्णनम् अस्ति अत्र. कथम् आसनं भवति? तत्र यज्ञदत्ते यज्ञदत्तत्वम् अस्ति, यज्ञदत्तत्वं निष्ठ अवच्छेदकता तया निरूपिता अवच्छेद्यता अवच्छेद्यताम् आश्रयः अस्ति आधेयता, सा आधेयता यज्ञदत्ते अस्ति अवच्छेद्यता आश्रय तत्र यज्ञदत्ते अस्ति चेत् सा आधेयता.
भगिनी तत्र सोपानेन गच्छामः. प्रथमतया तत्र अत्र वर्णनं किम् अस्ति नाम कस्य वर्णनम् अस्ति न इत्युक्ते तत्र यज्ञदत्तः आसने अस्ति इति.
यज्ञदत्तः आसने
यज्ञदत्तः आसने अस्ति इति वार्ता. इदानीं यज्ञदत्ते आधेयता अस्ति, अधिकर आसने अधिकरणता अस्ति. अधिकरणता आसने अनेके अनेकाः अधिकरणताः स्युः, वयं न जानीमः. अतः अस्याः अधिकरणतायाः अवच्छेदकधर्मः कः इति प्रश्नः. तत्र केन वयं ज्ञातुं शक्नुमः एषा अधिकरणता भिन्ना अस्ति, अन्याधिकरणताः अपि भवितुम् अर्हन्ति, किन्तु एषा अधिकरणता कीदृशी? अतः तत्र वयं वदामः तत्र अवच्छेदकं किम् अस्ति, आसनत्वम् इति अस्ति इति. अतः तत्र आसनत्वम् इति अवच्छेदकम् अस्ति अधिकरणतायाः. इदानीं तत्र अवच्छेदकः अपि अवच्छेद्य तयोः मध्ये निरूप्य निरूपकभावः अस्ति, अतः तादृशवाक्यं स्थापितुं शक्नुमः. अतः तत्र आसनम् इति स्वीकृत्य तत्र किम् अस्ति इति तत्र आसनं त्यजतु, किन्तु आसनत्वम् इति आरभ्य कीदृशी अधिकरणता इति विवृणोतु प्रथमतया.
प्रयत्नं करोमि. आसनत्वं निश्च अवच्छेदकता तया निरूपिता अवच्छेद्यता
आश्रयः
आश्रयः अधिकरणता
इति विवरणं खलु, तादृशं विवरणं. किन्तु इदानीम् एषा अधिकरणता अपि आधेयता तयोः मध्ये अपि निरूप्य निरूपकभावः अस्ति खलु. इदानीं यथा वयं भवती तत्र अधिकरणतायाः विवरणं कृतवती, तथैव तत्र यज्ञदत्ते यः आधेयता या आधेयता अस्ति तस्यापि विवरणं करोतु.
यज्ञदत्तत्वं
अन्तिम इम् इकारः मास्तु, यज्ञदत्तत्वनिष्ठ
यज्ञदत्तत्वनिष्ठ अवच्छेदकता निरूपिता अवच्छेद्यता आधेयता
अवच्छेद्यता आश्रयः आधेयता
आश्रय निरूप अधेयता सा अपि निरूपिता अस्ति
इति अस्ति हा इदानीं तत्र इदानीं वाक्यं यत् दीर्घवाक्यं भवती पठितवती तत् पश्यतु तत्र किं किम् अस्ति
तत्र यज्ञदत्तत्वनिष्ठ अवच्छेदकता तत्र यज्ञदत्तः आसने अस्ति इति वाक्यमस्ति चेत् तत्र कथं भवति तत् वर्णनम् अस्ति यज्ञदत्तत्वनिष्ठ अवच्छेदकता सा निरूपिता निरूपित अवच्छेद्यता आश्रय यज्ञदत्तनिष्ठ आधेयता निरूपित तत्र अस्ति आसनत्वनिष्ठ आसनत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रय अधिकरणताः अधिकरणताश्रय आसनं तत्र अधेयता अधेयता निरूपित अधेयता निरूपित अनन्तरम् एवं सर्वम् अस्ति चेत् तत्र केवलम् अधिकरणता कथं भवति तस्य वर्णनम् अस्ति अनन्तरम् अधिकरणता आश्रय इति तस्य व्याख्या भवति
हा तावदेव अस्ति तत्र गृहपाठरूपेण तत्र भवन्तः सर्वं तत्र गन्धं पृथिव्याम् अस्ति इति स्वीकृत्य एतादृशं दीर्घवाक्यं कुर्वन्तु अथवा तत्र लेखनी तत्र उत्पीठिकायाम् अस्ति इति स्वीकृत्य एतादृशचित्रं करोतु यतोहि तत्र इदानीं प्रश्नः भवति तत्र यदा वयं सर्वे एतादृशं तत्र चित्रस्य अपि विवरणं पश्यामः तत्र प्रश्नः उदेति किमर्थम् एतत् सर्वं भवति इति तत्र लघुबालकः तत्र अथवा बालिका तत्र पाठशालायां तत्र गणितविषये अथवा तत्र किमपि पाठशालायां पठन्ति चेत् तत्र प्रश्नः उदेति किमर्थं किन्तु तत्र बालकः वा बालिका वा तत्र उत्तरं न दातुं शक्नोति यतोहि सः अथवा सा न जानाति किन्तु अग्रे गत्वा तत्र विश्वविद्यालये यदि सः अथवा सा पठितुं गच्छति तस्मिन् समये तत्र इञ्जिनियरिङ्ग् इति किमपि यदि पठति तस्मिन् समये सः अथवा सा जानाति अस्तु एतस्य प्रयोगः अत्र अस्ति इति तथैव वयमपि अस्मिन् न्यायशास्त्रे वयं सर्वे बालकाः बालाः वयं सर्वे एतस्य प्रयोगस्य महत्त्वं किम् इति इदानीं न जानीमः अग्रे गत्वा सम्यक्तया जानीमः तत्र केवलं यत् वक्तुम् इच्छामः केवलं तस्य एव विवरणं भवतु नाम प्रेसिशन् इति यत् वदामः तस्य आवश्यकता अत्र अस्ति अतः एव तत्र एतादृशदीर्घविवरणं भवति अस्तु धन्यवादः भगिनि तावदेव अस्ति हा समीचीनं
प्रश्नः अस्ति
हा वदतु भगिनि
तत्र फुट्नोट् अस्ति निरूपितत्वम् अधिकरणतायां तस्य किमर्थमस्ति
हा निरूपितत्वम् अधिकरणतायां तत्र कुत्र अस्ति सङ्ख्या तत्र एकः इति
अत्र दीर्घवाक्यं यत् अस्ति न तत्र एव आधेयता निरूपित तत्र तस्य कृते
अस्तु भगिनि इदानीं तु न स्मरामि हा अग्रिमवर्गे वदामि भगिनि हा
भवान् तत्र अस्ति कीदृशी अधिकरणता खलु तत्र प्रथम एक तत् निरूपित तत्र यज्ञदत्त्व दत्तत्वम् अनन्तरं निरूपितपर्यन्तं येन निरूपितं तत्र अधिकरणतायां सर्वमेव अस्ति तत्र वयं दृष्टवन्तः खलु तत्र यज्ञदत्तत्वं निष्ठ अवच्छेदकता निरूपिता अवच्छेद्यता आश्रय आधेयता एवम् एकभागः तेन निरूपितं तया निरूपितम् अधिकरणता तथा एव लिखितमस्ति निरूपितत्वम् अधिकरणतायाम्
हा तत् समीचीनं हा सत्यं तथैव अस्ति इति मन्ये भगिनि हा समीचीनं धन्यवादः भगिनि हा धनश्री भगिनी समीचीनं वा
आम् तत्र निरूपितत्वम् अस्ति अथ
तत्र निरूपिता इति अस्ति, किन्तु निरूपिता निरूपतत्वं तत्र कुत्र अस्ति नाम अधिकरणतायाम् अस्ति इति. समीचीनं, धन्यवादः, धन्यवादः, तथैव अस्ति. अस्तु, धन्यवादः. अस्तु, अग्रे सरामः तर्हि. अस्तु, नमस्कारः.
प्रश्नः महोदय, इदानीम् अवच्छेदकता अवच्छेद्यता इति वदामश्चेत् आधेयतायां यज्ञदत्ते आधेयता अस्ति, आधेयतायां यज्ञदत्तत्वं विहाय अन्यधर्मः अस्ति वा भवति वा?
भवितुमर्हति भगिनि, अन्यधर्मः भवितुमर्हति. नाम तत्र यज्ञदत्ते यज्ञदत्तत्वम् इति अस्ति, किन्तु अन्यधर्मः तत्र पृथ्वीधर्मः अस्ति, पृथ्वीत्वम् अस्ति खलु.
तत् सर्वम् आधेयतायाम् एव वर्तते वा? तादृशाः धर्माः
आधेयतायाः अवच्छेदकः धर्मः नास्ति ते सर्वे.
इदानीम् आधेयतायां यज्ञदत्तत्वम् इति पृथक् करणार्थे एव सः अवच्छेदकता इति भवति वा?
न, तत्र प्रश्नः अस्ति. तत्र आसने एतत् स्वीकुर्मः, आसनात् आरम्भं कुर्मः, तत्र आसने अधिकरणता अस्ति इति. नाम कोऽपि आसने उपविष्टवान् अथवा उपविष्टवती इति चिन्तयामः, तत्र अधिकरणता अस्ति आसने. इदानीं प्रश्नः अस्ति कीदृशी अधिकरणता. तत्र वयं जानीमः अधिकरणता अस्ति चेत् आदेयता अपि भवेत् खलु, अतः आदेयता इति पर्यन्तं तत्र गच्छामः. इदानीं तत्र आदेयता इति अस्ति, किन्तु आदेयता कुत्र अस्ति? यज्ञदत्ते अस्ति इति एतावत् वयं पूर्वं कृतवन्तः खलु.
सत्यं,
तत्र यज्ञदत्ते कीदृशी आदेयता अस्ति इति प्रश्ने सति तत्र यज्ञदत्तत्व तत्र यज्ञदत्तत्वे तत्र तस्य अवच्छेदकधर्मः अस्ति इति वदामः. नाम तत्र एषा आदेयता तत्र यज्ञदत्तत्वात् तत्र अवच्छेद्यं भवति इति. नाम तत्र अन्यधर्मः स्युः यज्ञदत्ते, किन्तु तैः धर्मैः एतस्य अवच्छेदकं तत्र ते सर्वे अवच्छेदकः धर्मः न भवन्ति. तत्र अवच्छेदक नाम यत् पृथक् अस्ति इति प्रदर्शयति. अतः तत्र एषा आदेयता तत्र अन्ये अपि तत्र आदेयता भवेयुः, किन्तु तत्र एषा आदेयता तत्र यज्ञदत्तत्व इति धर्मेण तत्र अवच्छेद्या अस्ति इति भवति.
अवच्छेद्यम् अस्ति वा अवच्छेदकः भवति वा? इदानीम्
अवच्छेदकता एव यज्ञदत्तत्वम् अवच्छेदकं येन भेदः दृश्यते अथवा यः भेदं प्रदर्शयति सः अवच्छेदकः. अत्र यज्ञदत्तत्वम् अवच्छेदकं यस्य भेदः भवति तत्र यस्य भेदं कर्तुम्
यस्मात् भेदः भवति तदेव अवच्छेद्यता इति भवेत् वा?
तद् अवच्छेद्यम् इति वदामः.
अवच्छेद्यम् इति
नाम तत्र एकः
अतः एव आधेयतायाम् अन्यः धर्मः अपि भवेत् यज्ञदत्तत्वं पृथक् करणार्थम् अवच्छेदकः सः अवच्छेदकः इति.
तत्र आधेयता यज्ञदत्ते एषा आधेयता अस्ति, तस्याः आधेयतायाः अवच्छेदकः धर्मः अस्ति यज्ञदत्तत्वम् इति. तत्र प्रायशः भवत्याः प्रश्नस्य उत्तरम् एतस्य भागस्य परिशीलनात् प्रायशः न भवति, किन्तु एतत् अस्तु.
अन्य उदाहरणं चिन्तितवती, पूर्वम् एकम् उदाहरणं दत्तं खलु, क्षीरं पात्रं. तत्र तु यथा क्षीरं पृथक् कृतं किञ्चित् इतोपि तस्य गणना कृत्वा यथा पृथक् कृतं तथा पात्रं तु पात्रं क्षीरम् इत्यस्य एव अवच्छेदकः अवच्छेद्यभावः तत्र
प्रदर्शितं. क्षीरम् इति अवच्छेद्यं तत्र पात्रम् अवच्छेदकं, क्षीरम् अवच्छेद्यं तस्मिन् उदाहरणे खलु
तत्रैव किञ्चित्
क्षीरं क्षीरं भिन्नम् इति प्रदर्शयति तत्र आश्रयम् आश्रयभेदेन तत्र क्षीरं भिन्नम् इति जानीमः अत्र तत्र आदेयता एषा आदेयता भिन्ना इति तत्र अवच्छेदकधर्मेण जानीमः अन्यत् उदाहरणं प्रायः अस्मिन् तत्र अग्रे भवति इति चिन्तयामि भगिनि हा
अस्तु महोदय इदानीम् अवच्छेद्य अवच्छेद्यतायां तस्य क्षेत्रम् इतोपि बृहत् इति वक्तुं शक्नुमः वा अवच्छेद्यता बृहत् अवच्छेदकता तस्य एव भागः इति
न तत्र तयोः अवच्छेदकम् एकमस्ति अवच्छेद्यम् अन्यत् अस्ति तत्र क्षीरम् अपि तत्र तस्मिन् उदाहरणे तत्र पात्र अवच्छेदकं यतोहि पात्रेण तत्र भेदं स्थापयामः क्षीरस्य तत्र क्षीरद्वयमस्ति तत्र बृहत् पात्रे क्षीरमस्ति लघुपात्रे अपि क्षीरमस्ति तयोः मध्ये पात्रेण वयं भेदं स्थापितुं शक्नुमः पात्रम् अवच्छेदकम् अस्ति क्षीरम् अवच्छेद्यम् अस्ति पात्रम् अवच्छेदकम् इति कृत्वा पात्रे अवच्छेदकाता अस्ति क्षीरे क्षीरम् अवच्छेद्यम् इति कृत्वा क्षीरे अवच्छेद्यता अस्ति अपि तयोः मध्ये अवच्छेदकता अवच्छेद्यता तयोः मध्ये निरूप्यनिरूपकभावः वर्तते नाम तत्र साकाङ्क्षा पदार्थः इति कृत्वा अवच्छेद्यकता इति वदामश्चेत् अवच्छेद्यता का इति प्रश्नः उदेति अवच्छेद्यता इति वदामश्चेत् अवच्छेदकता का इति प्रश्नः उदेति
अस्तु महोदय धन्यवादः
समीचीनम् अस्तु अग्रे तत्र धनश्री भगिनी भवती एव तत्र अग्रे पठति वा
आं महोदय एवमेव वक्षमाण पृथिवी लक्षणे अपि गन्धवती पृथ्वी इत्यत्र पृथिवी भवति अधिकरणं गन्धश्च आधेयः तथा च गन्धत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रयः गन्धनिष्ठ आधेयता निरूपित पृथ्वीत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रय अधिकरणताश्रयः पृथिवी इत्येवं परिष्कारः आलोचनीयः
तत्रापि नाम अत्रापि तत्र यथा वयं यज्ञदत्तः आसने अस्ति इति तस्य विवरणं कृतवन्तः तथैव इदानीं तत्र यज्ञदत्त इति स्थाने किं भवति
गन्धत्व
हा इति गन्धत्वम् अस्ति इति तत् सर्वं हा अपि आसनमिति स्थाने तत्र का भवति
पृथ्वी
हा अपि पृथ्वीत्वम् इति आसनत्वम् इति स्थाने इति भवति तावदेव अस्तु अतः तत्र तादृशं चित्रं सर्वे कर्तुं शक्नुवन्ति इति मन्ये अतः अग्रे सरामः एतादृशचित्रं बहुवारं कुर्मः वारं वारं कृत्वा तस्य महत्त्वं किम् इति अग्रे ज्ञास्यामः अस्तु तर्हि तत्र धनशुभगिनी अग्रे
आचार्यजी परिष्कारः
तत्र प्रथमवारं स्थूलरीत्या कुर्मः परिष्कारः नाम पालिश् इति तत्र सूक्ष्मरीत्या रिफैन् इति अर्थः प्रथमवारं यदा कुर्मः स्थूलरीत्या वदामः तदनन्तरं सूक्ष्मरीत्या सर्वान् अंशान् दृष्ट्वा कथं वर्णनं करणीयम् इति चिन्तयित्वा यदि वयं कुर्मः तत्र परिष्कारः इति किमर्थं परिष्कारः इति उक्तं यतोहि पूर्वं वयं केवलम् एतदेव उक्तवन्तः यज्ञदत्तनिष्ठ आदेयता निरूपित अधिकरणता आश्रयः आसनम् इति उक्तवन्तः पूर्वं खलु किन्तु इदानीं किं वदामः आदेयतायाः अपि वर्णनं कुर्मः अधिकरणतायाः अपि परिष्कारं कृत्वा वदामः अतः परिष्कारः आलोचनीयः इति उक्तम् हा इति सत्यं सत्यं महोदय अस्तु धनश्री भगिनी
अभावस्य चतुर्विधत्वं प्रकृतम् अनुसरामः दर्शितरीत्या अभावप्रक्रियापरिज्ञानाय सामान्य अभावाद्य भावाः निरूपिताः ते च अत्यन्ताभावस्य प्रभेदाः तर्कसङ्ग्रहः कृता तु अभावश्चतुर्विधः प्राग्भावः प्रध्वंसाभावो अत्यन्ताभावो अन्योन्य अभावश्चेति इति दर्शितः अभावस्य विभागः अत्र
तत्र पुनः एकवारं पठतु भगिनि पठित्वा
अभावस्य चतुर्विधत्वं प्रकृतम् अनुसरामः दर्शितरीत्या अभावप्रक्रियापरिज्ञानाय सामान्य अभावाद्य भावाः
सामान्य अभावादि अभावाः
हा सामान्य अभावादि अभावाः निरूपिताः
हा तत्र आदि इति किमर्थं सामान्य अभावादि इति किमर्थम्
आदि नाम अन्य अभावः
सामान्य अभावः विशेष अभावः विशेषविशेष अभावः हा इति निरूपितवन्तः अस्तु अग्रे
ते च अत्यन्ताभावस्य प्रभेदाः यद्वयं दृष्टवन्तः ते अत्यन्ताभावस्य प्रभेदाः सन्ति
हा नाम सामान्यभावः विशेषभावः सर्वं हा तत्र ते प्रभेदाः कस्याः प्रभेदाः कस्य प्रभेदाः अत्यन्त अभावः इति यः अभावः एतावत् यस्य ज्ञानम् अस्माकम् अस्ति तस्य अभावस्य वस्तुतः तस्य नाम अस्ति अत्यन्त अभावः अत्यन्त अभावः इति एव तस्य नाम अस्ति तस्यैव तत्र सामान्यभावः विशेषभावः विशेषविशेष अभावः इति त्रैविध्यम् अस्माभिः दृष्टम् इदानीम् अग्रे
तर्कसङ्ग्रहः कृता तु अभावश्चतुर्विधः प्राग्भाव
प्राग्भावः
प्राग्भावः प्रध्वंसा अभावः अत्यन्त अभावः अन्योन्य अभावः चेति
तत्र चतुर्विधाः सन्ति चित्रे दर्शितमस्ति
चित्रे इति दर्शितः अभावस्य विभागः अभावः प्राग्भावः प्रध्वंसाभावः अत्यन्ताभावः अन्योन्याभावः अत्यन्ताभावस्य पुनः प्रभेदाः सन्ति सामान्याभावः विशेषाभावः विशेषविशेषाभावः
हा अतः तत्र अभावस्य चतुर्विधम् अस्ति किन्तु तेषु एकविधं वयं पठितवन्तः नाम अत्यन्त अभावस्य विषये वयं पूर्वमेव पठितवन्तः इदानीं तत्र प्रागभावः प्रध्वंस अभावः तत्र कः इति अद्यतनविषयः भवति अग्रिमे वर्गे तत्र अन्योन्य अभावः कः इति पश्यामः अस्तु समीचीनं धन्यवादः भगिनि हा अस्तु अग्रे तत्र नरसिंहमहोदय पठितुम् इच्छति वा
पठामि महोदय एकनिमिषं पी डि एफ् उद्घाटयामि मम समीपे पुस्तकं नास्ति एकनिमिषम्
अस्तु नो चेत् अन्य कोऽपि पठति महोदय भवान्
अभावः प्रागभावः अत्र
अस्तु अत्र
एवं हा पठामि अत्र एवं विभागचित्रं स्यात् इदानीं ग्रन्थोक्तभाव विभाग अनुसारेण प्रागभावः निरूप्यते अस्ति कश्चित् घटनिर्माता सः घटनिर्माणाय मृदमहरति जलं च आनयति घृतं हरति जलं च आनयति तेन स्वयुक्तां घृतं भ्रमयितुं चक्रम् आनयति सिद्धं घटं चक्रात् पृथक् कर्तुं रज्जुं च आनय आहरति तदा तादृशीं घटसामग्रीं दृष्ट्वा भवति ज्ञानम् अत्र घटो भविष्यति एतादृशज्ञानं घटाभावं प्रकाशयति
तावत्पर्यन्तम्
अत्र एक उदाहरणं अत्र साम् घटा प्रागभावस्य एक उदाहरणं दत्तमस्ति अत्र एकघटनिर्माता अस्ति सः किं करोति प्रथमतया वृदम् आहरति, अनन्तरं मृत्तिका आहरति, अनन्तरं जलमपि आनयति, जलं च मृदं संयुक्तं करोति, तेन संयुक्तं मृदं भ्रमयितुं चक्रम् आनयति, अनन्तरं सिद्धघटं चक्रात् पृथक् कर्तुं रज्जुं च आहरति. कोऽपि तत् दृश्यति चेत् तत्र पश्यति चेत् तत्र तस्य मनसि एकभावम् उदेति अत्र घटनिर्माणं भवति इति, अत्र घटो भविष्यति इति तस्य ज्ञानं भवति. एतादृशज्ञानं घटाभावं प्रकाशयति. एतस्य ज्ञानमेव तत्र घटो भविष्यति इति ज्ञानमेव घटाभावं प्रकाशयति. अत्र घटः नास्ति परन्तु तत्र घटः भविष्यति.
हा इति अस्ति समीचीनं. हा इति अस्ति, अस्तु समीचीनं महोदय, तथैव अस्ति. अतः तत्र किञ्चित् पुनः तस्मिन् विषये वदामः. तत्र घटनिर्माणस्य विवरणं दत्तमस्ति. तत्र अन्तिम वाक्यद्वयं पुनः तत्र अन्य कोऽपि पठतु. तत्र योगेन्द्रमहोदय किञ्चित् पठति वा तत्र केवलं तत्र अन्तिमवाक्यद्वयं, तदा तादृशीम् इति.
तदा तादृशीं घटसामग्रीं दृष्ट्वा भवती ज्ञानम् अत्र घटो भविष्यति. एतादृशज्ञानं घटाभावं प्रकाशयति.
नाम तत्र किं ज्ञानं भवति तत्र?
तदा
तत्र घटः नास्ति खलु, तत्र घटसामग्री अस्ति किन्तु घटः नास्ति खलु एतावत्.
आम्.
किन्तु यदा सः तत्र कुलालः अथवा तत्र निर्माता तत्र सर्वं करोति तत्र अस्माकं ज्ञानं भवति. अस्तु, अग्रे किञ्चित् समये तत्र घटः भविष्यति
इति ज्ञानं भवति.
इति ज्ञानं भविष्यति. अतः तत्र घटः नास्ति किन्तु घटः भविष्यति इति ज्ञानम् अस्माकम् अस्ति. अतः तत्र घटाभावं प्रकाशयति. घटः नास्ति किन्तु अग्रे भविष्यति इति एकं ज्ञानं भवति खलु, तदेव घटाभावं प्रकाशयति. हा इदानीम् अग्रे.
अयमेव घटप्राग्भावः. घटोत्पत्तेः प्राक् सामग्रीसत्त्वे घटाधिकरणे प्रीयमानः प्रतीयमानः ज्ञायमानः. अत्रापि घटस्य अस्य अभावस्य च विरोधः. प्रतियोगनुयोगिभावः प्रतियोग्यनुयोगिभावः अस्ति. यदा प्राग्भावः न तदा घटः. उत्पन्ने पुनर्घटे न घटप्राग्भावः इति अस्ति. तयोः सहानवस्थानरूपः विरोधः. तन्निरूपणप्रकारः पूर्ववचिज्ञान ज्ञातव्यः.
अस्तु, किञ्चित् विवृणोतु. तत्र प्रथमवाक्यद्वयं, हा वाक्यद्वयं स्वीकृत्य वदतु महोदय.
यदा घटनिर्माणस्य प्रक्रिया भवति तदा ज्ञानं भवति. यद् ज्ञानं भवति घटः भविष्यति. तदा घट नास्ति तद् भावः घटप्राग्भाव इति उच्यते.
तत्र घटप्राग् अभावः,
घटप्राग् अभावः इति उच्यते.
तत्र घटोत्पत्तेः प्राक्
घटोत्पत्तेः प्राक् यः भावयित सः प्राग्भाव इति उच्यते. परन्तु यः सामग्रीसत्त्वे,
सामग्रीसत्त्वे नाम सामग्री
क्रिया या क्रिया भवति.
हा सामग्रीसत्त्वे नाम तत्र सत्त्वे नाम किं, सामग्रीसत्त्वे नाम
अस्ति.
हा सामग्री अस्ति नाम सति सप्तमी, तत्र सत्त्वे सामग्रीसत्त्वे. हा तत्र घटाधिकरणे सर्वं, तत्र घटस्य अधिकरणे कपालः द्वयं सर्वम् अस्ति, सामग्री सर्वम् अस्ति. तस्मिन् समये प्रतीयमानः, प्रतीयमानः तत्र प्रतीतिः भवति नाम अस्माकं ज्ञानं भवति, भासते प्रतीयते इति वदामः. तत्र अहं बहिः गच्छामि, सर्वत्र जलमस्ति, तदानीम् अस्माकं मनसि भवति अस्तु वृष्टिः अभवत् इति ज्ञानम् उदेति, तत्र प्रतीयते अस्तु वृष्टिः आसीत् इति प्रतीतिः, तत्र प्रतीयमानः ज्ञायमानः तद् तदेव अस्ति तत्र घटप्राग् अभावः, तत्र घटः अग्रे भविष्यति इति ज्ञानं तदेव अस्ति तत्र घटप्राग् अभावः। समीचीनं महोदय। हा इदानीं तत्र अग्रे किञ्चित् विवृणोति वा तत्र अत्रापि घटस्य इति?
अत्रापि घटस्य अस्य अभावस्य च विरोधः।
हा तत्र विरोधः नाम वयं दृष्टवन्तः तत्र विरोधस्य द्वैविध्यमस्ति,
घटः अस्ति तस्य अभावः अस्ति, सः सः विरोधः।
यथा वयं पूर्वं दृष्टवन्तः तत्र घटः नास्ति इति तत्र अभावः अस्ति, यदा घटः आगच्छति अभावः अपगच्छति, तत्र सहानुवस्थानं नास्ति इति। तत्र तु अत्यन्त अभावस्य विवरणम् आसीत्, तत्र घटः नास्ति इति एव। इदानीं घटः इति एव न घटः इति एव चिन्तनं नास्ति, घटः नास्ति नास्ति नास्ति, इदानीं घटः अस्ति इति भवति, अतः तत्र प्रागभावः, घटः पूर्वं नासीत्, अतः तत्र तस्य विवरणम् इदानीं कुर्मः। घटस्य निर्माणानन्तरं घटः अत्र अस्ति, अस्मिन् प्रकोष्ठे इदानीम् अस्ति, एतं घटम् अन्यत्र नयामः तस्मिन् समये अस्मिन् प्रकोष्ठे घटः नास्ति चेत्, घटः पूर्वम् आसीत् इदानीं घटः नास्ति चेत्, तस्मिन् समये यः अभावः घटः अभावः अस्ति इति वदामः तदस्ति पूर्वं, तत्र अत्यन्तः अभावः, यत् पूर्वं वयं दृष्टवन्तः घटः पूर्वम् आसीत् इदानीं तत्र अन्यत्र अस्ति, अतः अस्मिन् प्रकोष्ठे घटाभावः अस्ति, तत् अत्यन्तः अभावः। किन्तु इदानीं नूतन अभावः तत्र किम् अस्ति, एतावत् घटः एव नास्ति, एषः घटः पूर्वं न निर्मितः, इदानीम् अग्रे तस्य निर्माणं भवति, तस्य विषये तस्य निर्माणात् प्राक् घटः नास्ति इति यः यद् ज्ञानम् अस्ति तदस्ति घटाभावः। घटस्य निर्माणानन्तरम् एतस्य अभावस्य नाशः भवति, एषः अभावः नश्यति, यतोहि इदानीं घटः निर्मितः, अतः तत्र अत्रापि विरोधः वर्तते। अग्रे महोदय। तत्र अतः तत्र घटः प्रतियोगी भवति, अभावः किं भवति?
अनुयोगी।
अनुयोगी, यथा तत्र अत्यन्ताभावस्थित्याम् आसीत् तथैव अत्रापि तत्र प्रतियोगी अनुयोगी इति भावः तयोः मध्ये अस्ति। अग्रे यदा
यदा प्राग्भावः न तदा घटः, यदा पूर्वं घटः नास्ति तदनन्तरं घट अस्ति,
हा घटस्य निर्माणात्
अस्ति तदा घटः नास्ति,
हा निर्माणानन्तरं घटः अस्ति किन्तु एषः प्रागभावः नास्ति,
तदा यदा घटः अस्ति तदा प्राग्भावः नश्यति। उत्पन्ने घटे न घट प्राग्भावः इति अस्ति इति एव उक्तं, तयोः स्थानवस्थारूपः विरोधः, तयोः स्थानवस्थारूपः न भवति
इति। समीचीनं। हा
यदा पूर्वं सर्पः नकुलः सहानुभावे सहानवस्थारूप तिष्ठति इति अवस्था न भवति अत्र,
हा तत्र सः अवस्थानं भवति किन्तु अत्र सः अनवस्थानं भवति। समीचीनं। हा तत्र सः अवस्थानम् एकस्मिन् क्षणे तु तत्र नकुलः सर्पः अपि एकस्मिन् स्थले सन्ति स्तः, किन्तु अत्र तादृशी परिस्थितिः अत्र नास्ति। एतत् साधारण अभावः स्थले यः विरोधः अस्ति सः एव विरोधः, अत्यन्त अभावस्थले यः विरोधः आसीत् सः एव विरोधः अत्रापि अस्ति इति एव, तत्र प्रागभावस्थले अपि सः एव तत्र विरोधः वर्तते। अग्रे तन् निरूपण
तत् निरूपणप्रकारः पूर्ववत् ज्ञातव्यः.
हा, तस्य निरूपणप्रकारः, तस्य निरूपणं कथं भवति इति प्रश्ने सति पूर्ववत्. यदा वयं पूर्व अभावस्य विवरणं कृतवन्तः, वर्णनं कृतवन्तः, तथैव अत्रापि भवति. यथा तत्र चित्रं तत्र 32 यत्र अस्ति, अथवा हा 31 मध्ये अपि तत्र अनियोगिता प्रतियोगिता अपि तत्र प्राग् अभावः इति स्थले प्रागभावः इति स्थापयतु, तावदेव. घट जलस्य स्थाने घट घटः इति स्थापयतु, अभावस्थले प्रागभावः इति स्थापयतु. एषः एतत् चित्रं भवति इति तत् तस्य निरूपणं जातम्. अतः तत्र प्रागभावः, प्रागभावः घटस्य निर्माणात् प्राक् वर्तते, घटस्य निर्माणानन्तरं नश्यति. हा, इति प्राग् अभावः. अस्तु, समीचीनं महोदय, धन्यवादः.
अस्तु, धन्यवादः.
धन्यवादः. अस्तु, अग्रे तत्र अन्य कोऽपि पठितुम् इच्छति वा? नो चेत् अहमेव पृच्छामि, किन्तु यदि अस्तु तत्र तर्हि तत्र चन्द्रमती भगिनी पठितुमिच्छति वा?
अस्तु महोदय, नमस्ते.
नमस्कारः भगिनी.
चित्रम् अत्र अस्ति, खटनिष्ठ प्रतियोगिता निरूपित अनियोगित आश्रयः खड खड प्रागभावः.
हा, इति हा घटप्रागभावः इति समीचीनं. हा, इदानीं द्वितीयचित्रस्य विवरणम् इदानीं मास्तु, तत्र अधोभागे यदस्ति तत् किञ्चित् पठतु भगिनि.
एवं घटे मुद्गरपादे, एवं खडे मुद्गरपादे सति अत्र खडो खडोद्वस्तः इति प्रतीतिः जायते. एतादृश प्रतीत्यौ यः प्रकाशयते सः खडध्वंसः द्वितीयः अभावः.
हा, तावत्पर्यन्तं. हा, किञ्चित् वर्णतु तत्र.
एवं खडे मुद्गरपादे सति सप्तमी प्रयोगमेव.
मुद्गरपादे इति मुद्गर इत्युक्ते किम्? अन्य कोऽपि वदति वा मुद्गरः नाम किम्? हा, अतः तत्र मुद्गरम् इदानीं पाते, पातः नाम
मार्गं
न तत्र. हा, एतत् न अस्तु, तत्र पातः नाम पतति इति क्रियापदं वा अथवा अन्यत् क्रियापदं तत्र?
उद्गरम् इत्युक्ते किं? पापयति तत्र
उद्गरम् इति हामर् मुद्गरं
साक्षात्
तत्र निच्छ अस्ति खलु, अन्य कोऽपि तत्र पातयति. यदि वयं मुद्गरं पातयामः घटस्य उपरि, मुद्गरं पातयामः किं भवति? घटस्य नाशः. घटः ध्वस्तः भवति.
मुद्गरपादं खडस्य उपरि करोति चेत् खडस्य तु अवसरं भवति, नाशं भवति
इति एव. अतः तत्र तादृशप्रतीतिः जायते,
प्रतीतिः जायते.
तत्र न्यायशास्त्रे प्रतीतिः नाम ज्ञानम् अपि, तत्र पूर्वस्मिन् पुटे अपि तत्र प्रत्ययः इति आसीत्, तदपि
सज्जीकरणं कृतवन्तः, तद् दृष्ट्वा खडनिर्माणं भविष्यति इति प्रतीति जायते.
हा अपि तत्र एतादृशं ज्ञानं प्रत्ययः इति उक्तमस्ति तत्र टिप्पणी तत्र प्रत्ययः इति अस्ति तत्र तत्रापि प्रत्ययः इति तत्र सफिक्स् इति यत् व्याकरणे अस्ति तद् नास्ति न्यायशास्त्रे प्रत्ययः नाम ज्ञानं प्रतीतिः नाम ज्ञानं भासते इदानीं तत्र एतादृशी प्रतीतौ
एतादृशी प्रतीत्यौ यः प्रकाश प्रकाशयते सः खड ध्वंसः द्वितीयः अभावः.
हा तादृशघटध्वंसः एव द्वितीय अभावः तत्र प्रागभावः घटः
प्रथम अभावः खडनिर्माणस्य सज्जीकरणं कृतवन्तः तद् दृष्ट्वा वयं खडस्य निर्माणं भविष्यति इति प्रथमं वयं जानीमः तद् प्राग् अभावः.
हा तत्र किं भवति घटः नासीत्
खडः नास्ति खडः नास्ति इदानीं निर्माणं भविष्यति
घटः नासीत् इदानीं घटः अस्ति तद् प्रागभावः.
खडस्य ध्वंसनं करोति मुद्गार पादं कृत्वा खडस्य ध्वंसनं करोति इति प्रतीति भविष्यति तद् द्वितीय अभावः.
घटः घटः अस्ति किन्तु घटः
नाशं
न भविष्यति न भविष्यति इति ध्वंसः. हा अतः तत्र प्रागभावः प्रध्वंसः
तद् खडनिर्माणं प्रागभावः तत्र खडनिर्माणं तत्र खडध्वंसनं तद् द्वितीय अभावः.
हा इति अस्ति. हा इदानीं तत्र समीचीनं भगिनि इदानीं तत्र प्रश्नः सर्वेषां कृते तत्र प्राग् अभावः तस्य अन्तः अस्ति खलु प्राग् अभावस्य अन्तः अस्ति खलु प्राग् अभावः कदा नश्यति घटनिर्माणसमये नश्यति किन्तु तस्य जन्म कदा अभवत् तस्य आदिः अस्ति वा प्राग् अभावस्य आदिः नास्ति. हा प्रागभावस्य आदिः नास्ति अन्तः अस्ति. इदानीं प्रध्वंसाभावस्य स्थितिः
का
हा इति तयोः मध्ये भेदः प्रागभावः प्रध्वंसाभावः तयोः मध्ये भेदः समीचीनं. हा अस्तु चन्द्रमती भगिनी धन्यवादः. हा अस्तु अग्रे हा तत्र उपेन्द्रमहोदय अग्रे पठितुम् इच्छति वा उपेन्द्रमहोदय. अस्तु अस्तु तर्हि तत्र अग्रे प्रेमलता भगिनी पठितुम् इच्छति वा.
आचार्यजी आमाचार्यजी नमस्ते नमस्ते आचार्य
पठितुं शक्नोति वा.
आमाचार्यजी
एकनिमिष
आचार्य अभावे घटप्रभावः
न इदानीं तत्र पुटसङ्ख्या अस्ति 28 अत्यन्त अभावस्तु इति
अत्यन्त अभावस्तु प्राग् निरूपितः भूतले घटो नास्ति इति अभावः.
हा इदानीं तत्र तस्य तत् किं तत् अवगच्छति खलु तत्र पूर्वं यत् वयम् अभावः
निरूपितः प्राग् अत्यन्त अभावः पूर्वं निरूपितः भवति भूतले भूतले घटः नास्ति इति अभावः
इति अभावः एव अत्यन्त अभावः
अत्यन्त
नाम
प्राग्
नास्ति
अस्तित्वम् अस्तित्वं नास्ति.
हा केवलं तत्र घटः अन्यत्र अस्ति इति वार्ता अस्ति चेत् तत् अत्यन्त अभावः. अत्र घटः नास्ति अन्यत्र अस्ति चेत् तत्र वयं वदामः अत्यन्त अभावः इति. किन्तु प्राग् अभावः भिन्नः प्रध्वंस अभावः भिन्नः. इदानीम् अग्रे
घटत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावती या प्रतियोगी तन्निरूपकः अभावः
हा इति अत्र अस्ति अस्तु तत्र महोदय तत्र भवनेव
कीदृशी प्रतियोगितावर्णनं अत्र करोति कीदृशी प्रतियोगिता घटत्वनिष्ठ अवच्छेदकतानिरूपित अवच्छेद्यवती
अवच्छेद्यतावती
या घटनिष्ठ
अस्तु अस्तु अस्तु
या प्रतियोगिता निरूपकः निरूपकः अभावः अत्यन्त अभावः इति
हा इति समीचीनं हा इति समीचीनम् अस्तु किन्तु तत्र तत्र सर्वं किन्तु तत्र किञ्चित् किञ्चित् सोपानेन गच्छामः तर्हि तत्र अतः तत्र प्रतियोगिता इति अस्ति तत्र प्रतियोगिता कुत्र अस्ति
प्रतियोगिता घटे अस्ति आचार्य
समीचीनं घटे प्रतियोगिता
घटे अस्ति प्रतियोगिता तस्य निरूपकः तस्य
इदानीम् अस्तु एकनिमिषः महोदय उपेन्द्रमहोदय एकनिमिषः अत्र अस्तु प्रतियोगिता घटे अस्ति
अस्ति
इदानीं तत्र प्रतियोगिताः अवच्छेदकः अस्ति वा
तत्र प्रतियोगिता अवच्छेदक अवच्छेदकता
न न अवच्छेदकः अस्ति वा प्रतियोगितायाः अवच्छेदकः कः
घटत्वं
घटत्वम् इति समीचीनम् अतः घटत्वम् इति अवच्छेदकं प्रतियोगिता इति अवच्छेद्या
अवच्छेद्या
अवच्छेद्या हा समीचीनम् इदानीम् अतः घटत्वे अवच्छेदकता अस्ति अपि प्रतियोगितायाम् अवच्छेदकता अस्ति अवच्छेद्यता अवच्छेद्यता अस्ति इदानीं तत्र प्रतियोगितायाम् अवच्छेद्यता अस्ति इति कृत्वा मतु प्रत्ययः अवच्छेद्यता तत्र धनं यस्याम् अस्ति किं भवति पुल्लिङ्गे धनवान् स्त्रीलिङ्गे अत्र प्रतियोगिता इति अस्ति प्रतियोगिता पुल्लिङ्गपदं वा स्त्रीलिङ्गपदम् अतः तत्र अवच्छेद्यता वान् इति स्थाने अवच्छेद्यता वती अवच्छेद्यता अवच्छेद्यतावती का प्रतियोगिता अवच्छेद्यतावती का अस्ति प्रतियोगिता अस्ति यतोहि प्रतियोगितायाम् अवच्छेद्यता अस्ति अतः तत्र घटत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रयः अथवा अवच्छेद्यतावती प्रतियोगिता या अस्ति तस्याः निरूपकः अभावः नाम सः एव तत्र अत्यन्त अभावः इति पूर्ण समीचीनं महोदय हा इदानीं तत्र किञ्चित् भवतः प्रश्नस्य विषये भवान् पूर्वं पृष्टवान् तत्र अवच्छेदकः अपि अवच्छेद्य इति तस्मिन् विषये किञ्चित् वदतु इति पूर्वं पृष्टवान् अतः तत्र किञ्चित् विवृणोमि तत्र अवच्छेदकः इति अस्ति तत्र कः इति अवच्छेदकः इति भवति तत्र कोऽपि जानाति वा तत्र प्रत्ययः कः इति यः लिखति सः लेखकः तत्र कः नूल् प्रत्ययः समीचीनं हा नूल् प्रत्ययः अस्ति तादृशं तथैव तत्र अवच्छेदकः यः अवच्छेदयति सः अवच्छेदकः इति भवति तत्र अपि तत्र यः अध्यापयति सः अध्यापकः यः गायति सः गायकः यः चालयति सः चालकः तादृशम् अत्र यः अवच्छेदयति सः अवच्छेदकः इति तत्र कर्तारं बोधयति इति तत्र तस्मिन् अर्थे तत्र अण्युल् प्रत्ययस्य उपयोगः भवति. इदानीं तत्र अवच्छेद्यम् इति यदस्ति तस्मिन् विषये वयं तत्र उदाहरणानि पश्यामः. तत्र तत्र वयं जानीमः तत्र धातव्यं धा धातुः अस्ति. तत्र वयं जानीमः तत्र धातव्यं धानीयम् इति तत्र तव्यत् अनीयर् इति प्रत्ययः अस्ति. किन्तु अन्यः प्रत्ययः अपि अस्ति तत्र, तदस्ति तत्र रूपं भवति धेयम् इति. तत्र कर्म बोधति तत्र एतद् धातव्यम् अस्माभिः एतद् धातव्यम् अथवा एतद् धानीयम् अथवा अस्माभिः एतद् धेयम्. तत्र तत्र यत् प्रत्ययः इति अस्ति तत्र तत्र यत् इति प्रत्ययः अपि तत् तत्र अन्यत् रूपम् अपि वदामि. तत्र झि धातुः अस्ति चेत् झेयं, पा धातुः अस्ति चेत् पेयम् इति भवति. किन्तु कृ धातुः अथवा तत्र हलन्तधातुः अस्ति चेत् तत्र किञ्चित् भिन्नप्रत्ययः अस्ति. किन्तु कृ धातुः तस्य उदाहरणं स्वीकुर्मः. कृ धातुः अस्ति चेत् तत्र कर्तव्यं करणीयम् इति जानीमः. किन्तु एतस्य प्रत्ययस्य योजनेन रूपं किं भवति? धेयम् इति स्थाने दातव्यं धानीयं धेयं. किन्तु कृ भवती वदतु भगिनि कार्यं, हा कार्यम् इति भवति. अपि तत्र वच् धातुः तत्र वचनीयं वक्तव्यं. किन्तु एतस्य प्रत्ययस्य योजनेन किं पदं
भवति?
वाक्यं, वाक्यं, वाक्यमेव वक्तव्यं. यत् वक्तव्यमस्ति तदस्ति वाक्यं. यत् करणीयमस्ति तदेव तदस्ति कार्यं. यत् तत्र पचनीयम् अथवा पक्तव्यमस्ति तत् पाठ्यम् इति भवति. तथैव तत्र अवच्छेद्यम् इति तत्र अवच्छेद्यं पुनः तत्र यत् इति प्रत्ययेन तत्र तस्य निर्माणं भवति. कर्मं बोधयति यस्य अवच्छेदनम् अभवत् सः अवच्छेद्यं, येन अवच्छेदनं कृतवन्तः सः अस्ति अवच्छेदकः इति अस्ति तत्र. अतः बहु समीचीनः प्रश्नः आसीत् उपेन्द्रमहोदय, धन्यवादः तत्र. अतः तत्र यत् प्रत्ययः इति अस्ति, हा समीचीनः अस्ति. अतः तत्र अवच्छेदकः अवच्छेद्यम् इति तस्य विवरणं कृतवन्तः. इदानीं तत्र अत्र अन्यदपि ज्ञातव्यमस्ति, ज्ञातव्यः अंशः अस्ति. तत्र तन्निरूपकः अभावः इति अस्ति. तत्र निरूपकः इति पुनः कः इति अस्ति. किन्तु एतत् किञ्चित् भिन्नम् अस्ति. तत्र तन्निरूपकः निरूपयति, तत्र अस्ति अभावः. तन्निरूपकः अभावः तत्र अर्थः अस्ति. तत्र यस्य प्रतियोगिता, यस्य प्रतियोगिता अस्ति सः इति. अतः अत्र अस्ति अभावः. यस्य अभावस्य प्रतियोगिता अस्ति सः अभावः इति. तस्य उदाहरणं तत्र साधारण उदाहरणं तत्र कः इति प्रयोगः. तत्र बहुव्रीहिसमासः इति व्याकरणरीत्या भवति. तत्र उदाहरणं ददामि. तत्र कोऽपि अस्ति, तत्र रमेशः इति स्वीकुर्मः. तस्य नाम अस्ति रमेशः. तत्र वयं वदामः नामक रमेशनामकः पुरुषः अस्ति. तत्र नामक इति यत्र कः इति भवति खलु, नामकः पुरुषः अस्ति. तत्र कः, कस्य नाम रमेशः अस्ति सः इति अर्थे. रमेशनामकः पुरुषः, रमेशनामकः कः, तस्य नाम रमेशः. तादृशं तत्र यस्य प्रतियोगिता, तत्र यस्य अर्थे तत्र निरूपकः अभावः इति. तत्र कः कः इति पदस्य कः इति अन्ते भवति, नाम अत्र यस्य, यस्य प्रतियोगिता, यस्य प्रतियोगिता अत्र अभावः एव, अभावस्य एव प्रतियोगिता. अतः तत्र यस् निरूपकः अभावः इति भवति इति तत्र निरूपकः इति पदस्य अपि किञ्चित् विवरणम् अस्तु. इदानीं तत्र एतद् दीर्घवाक्यं यदस्ति, तत्र घटत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावती या प्रतियोगिता तन्निरूपकः अभावः तस्य दीर्घवाक्यस्य इदानीम् अग्रे तत्र लघुवाक्यं भवति. अस्तु, किञ्चित् तत् पठामः तत्र अग्रे. अन्य कोऽपि पठति वा? तत्र राजीभगिनी अग्रे पठति वा अन्तिमवाक्यं तत्र? एवं
कापि पठति वा महोदय?
आम् भवती एव पठतु भगिनि. हा एवम्
एवं पटः नास्ति इति पटत्व अवच्छिन्नप्रतियोगिता कः?
हा इति तत्र इदानीं तत्र पटः नास्ति इति पटाभावस्य विवरणं. पटाभावस्य विवरणं किमस्ति? पटः नास्ति इति, तस्य पटः नास्ति इति अभावः, तस्य विवरणं वयं साधारणतया कथं कुर्मः? यदा पूर्वम् आसीत् तत्र घटत्वनिष्ठ इति दीर्घवाक्यम् अस्ति खलु, तदस्ति घटाभावस्य विवरणं. तद् बहु दीर्घवाक्यमस्ति खलु, घटत्वनिष्ठ अवच्छेदकता निरूपिता इति एतत् सर्वम् अस्ति खलु. तस्मिन् स्थाने वयं केवलम् एतत् वदामः, पटत्वावच्छिन्नप्रतियोगिता कः? अभावः. कः अभावः अस्ति? तदस्ति पटाभावः. पटाभावः कः? पटत्वावच्छिन्नप्रतियोगिता कः?
समानरूपेण घटत्वावच्छिन्नप्रतियोगिकः इति अपि वक्तुं शक्यते किल?
हा सत्यं. हा पूर्वस्मिन् दीर्घवाक्यस्य स्थाने वयं सत्यं घटत्वावच्छिन्नप्रतियोगिता कः इति अस्ति. सः कः नाम? सः अस्ति घटाभावः इति अस्ति. अतः तत्र पटाभावस्य पूर्णविवरणं तत्र अवच्छिन्ना सर्वम् अवच्छिन्ना इति यत् अस्ति तस्मिन् पदे अन्तर्भूतः अस्ति. तत्र इदानीम् अग्रे एतत् कुर्मः, अवच्छिन्ना यत्र यत्र भवति तत्र किं भवति? अवच्छिन्ना अस्ति चेत् पटत्वावच्छिन्नप्रतियोगिता इति लघुवाक्यम् अस्ति, तस्य विवरणं करोतु चेत् किं कुर्मः तत्र? अवच्छिन्ना इति स्थाने घटत्वावच्छिन्नप्रतियोगिता इति स्थाने वयं दीर्घवाक्यं घटत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता वति प्रतियोगिता अथवा अवच्छेद्यता आश्रयः प्रतियोगिता इति तादृशदीर्घवाक्यं वदामः. किन्तु शार्ट्कट् अत्र अस्ति, किमस्ति? पटत्वावच्छिन्नप्रतियोगिता कः इति पठाभावः. अस्तु अग्रे.
अवच्छिन्नः इत्युक्ते पृथक्करणम् इति स्वीकुर्मः वा?
हा तत्र अवच्छिन्न, अवच्छिन्ना नाम अवच्छेदकं, तस्य अवच्छेदनं कृतवन्तः नाम तत्र एतत् पृथक् कृतवन्तः. तत्र पटत्वेन एतस्य पृथक् कृतवन्तः, एतद् भिन्नम् इति प्रदर्शितवन्तः.
अन्योन्य अभावनिरूपणाय तादात्म्यसम्बन्धादि निरूपणम् आदौ क्रियते.
हा एतावत् वयं प्राग् अभावः तद्वंशाभावः कः इति उक्तवन्तः, किन्तु अपि अत्यन्ताभावः पूर्वमेव दृष्टवन्तः. इदानीं तत्र अन्योन्यभावः इति अन्तिमविधः अस्ति, तस्य विवरणार्थं तत्र तादात्म्यसम्बन्धः कः इति तस्य आवश्यकता अस्ति.
द्रव्ययोः संयोगः समवायनिरूपणे उक्तः. अभावः प्रतियोगिता अनुयोगिता इत्यादयः पदार्थाः तु न संयोगेन सम्बन्धाः भवन्ति, द्रव्ययोः एव संयोगः इति नियमात्, नापि समवायेन. समवायः तु गुणगुणिनोः क्रियावतोः जाति व्यक्त्योः अवयव अवयविनोः विशेषनित्यद्रव्ययोः एव इत्युक्तमेव. अतः अभावादिपदार्थानाम् आधार आधेयभाव निर्वाहाय स्वरूपसम्बन्धः इति सम्बन्धः कल्प्यते.
हा इदानीं तत्र प्रथमभागं स्वीकृत्य वदतु नियमात् इति
संयोगः समवायनिरूपणे उक्तः इदानीं समवायसम्बन्धः इति वयं हस्तस्य विषये दृष्टवन्तः पूर्वं हस्तः पृथक् रूपेण आसीत् तदनन्तरं यदा वयं नमस्कारं कुर्मः तत्समये तद् योजयितुं शक्यते तद् अनन्तरं पृथक् कर्तुमपि शक्यते
तत्र संयोगः इति सम्बन्धः तयोः मध्ये खलु
अत्र अभावः प्रतियोगिता अनियोगिता इत्यादयः पदार्थाः तु न संयोगेन सम्बद्धाः भवन्ति
नाम इदानीं तत्र वयं तत्र संयोगसम्बन्धः कः इति दृष्टवन्तः इदानीं तत्र अभावः अपि प्रतियोगिता अनियोगिता इति तत्र वयं चित्रे प्रदर्शितमस्ति खलु तत्र प्रतियोगिता घटे अस्ति इति उपरि चित्रम् अस्ति खलु तत्र प्रतियोगिता घटे अस्ति इति दर्शितमस्ति खलु इदानीं प्रश्नः उदेति तत्र केन सम्बन्धेन प्रतियोगिता घटे अस्ति तत्र शरः अस्ति किन्तु सम्बन्धः कः यदा तत्र यज्ञदत्तः आसने अस्ति तत्र सम्बन्धः कः यज्ञदत्ते आसने उपविशति तत्र सम्बन्धः कः तत्र समवायसम्बन्धः वा संयोगसम्बन्धः वा संयोगसम्बन्धः यतोहि पृथक् कर्तुं शक्नुमः संयोगसम्बन्धः यज्ञदत्तः आसनं तत्र सम्बन्धः तु संयोगसम्बन्धः इदानीं तत्र प्रतियोगिता अनियोगिता अपि अभावः पदार्थे तत्र घटे अस्ति घटे प्रतियोगिता अस्ति इति एतादृशं वर्णनं कुर्मः किन्तु प्रश्नः तत्र अस्ति प्रतियोगिता तत्र पदार्थे केन सम्बन्धेन अस्ति तत्र संयोगसम्बन्धः न भवति किमर्थं न भवति अतः उत्तरमस्ति तत्र
नियमात्
तत्र नियमः अस्ति द्रव्ययोः मध्ये एव संयोगसम्बन्धः किन्तु अत्र किम् अस्ति तत्र द्रव्यमस्ति वा तत्र प्रतियोगिता अभावः
द्रव्यं नास्ति
अभावः द्रव्यं नास्ति प्रतियोगिता अपि द्रव्यं नास्ति इति कृत्वा तत्र संयोगसम्भवः सम्बन्धः नास्ति इति नास्ति इति समीचीनम् अस्ति किमर्थं समवायसम्बन्धः अपि नास्ति यतोहि
समवायः तु गुणगुणिनोः क्रियावतोः जातिव्यक्त्योः अवयव अवयवयोः विशेषनित्यद्रव्ययोः एव इत्युक्तमेव
पूर्वं वयं दृष्टम् उक्तवन्तः कुत्र कुत्र समवायसम्बन्धः भवति अत्र तत्र अभावः किं गुणः अस्ति वा
गुणः नास्ति
यतोहि गुणः तु तत्र कुत्र वर्तते वयं तत्र सप्तपदार्थाः दृष्टवन्तः तत्र गुणद्रव्ये एव वर्तते किन्तु तत्र वयं दृष्टवन्तः तत्र सप्तपदार्थाः तत्र वयं पूर्वं दृष्टवन्तः तत्र सप्तपदार्थाः द्रव्यं गुणः कर्म सामान्यं विशेषः समवायः अभावः तत्र अभावः भिन्नः पदार्थः तत्र गुणः नास्ति अपि क्रिया अस्ति वा कर्म अस्ति वा तत्र अभावः नास्ति जाति अस्ति वा धर्मः अस्ति वा नास्ति अवयवः अस्ति वा तस्य भागः अस्ति वा अथवा तत्र नास्ति विशेष इति अस्ति वा नित्यद्रव्ये अस्ति वा नास्ति अतः अभावः तत्र पदार्थे समवायसम्बन्धेन न तिष्ठति अतः तत्र तयो अभावः केन सम्बन्धेन तिष्ठति इति प्रश्नः उदेति अतः
अतः अभावादिपदार्थानाम् आधार आधेय भावनिर्वाहाय स्वरूपसम्बन्धः इति सम्बन्धः कल्प्यते
इदानीं तत्र
स्वरूपसम्बन्धः इति नूतनकल्प सम्बन्धः अत्र उच्यते
नाम तत्र यदा तत्र वयं चिन्तयामः तत्र उपरि तत्र घटः भावः अस्ति इति चिन्तयामः तत्र अथवा प्रतियोगिता अस्ति इति चिन्तयामः प्रतियोगिता वर्तते घटे तत्र किं वदामः तत्र सम्बन्धः नास्ति समवायसम्बन्धः अपि नास्ति किन्तु तत्र सम्बन्धः अस्ति स्वरूपसम्बन्धः इति चिन्तनम् अस्ति आधेयभावः भवतु इति नाम तत्र अभावः तत्र भूतले इदानीं घटाभावः अस्ति घटः नास्ति इति चिन्तयामः भूतले घटाभावः अस्ति अतः घटाभावः उपरि चिन्तयामः भूतलम् अधोभागे अस्ति तत्र भूतलम् आसनमिव यज्ञदत्तम् इव घटाभावः अतः तत्र वयं वक्तुमिच्छामः अत्र अभावः आधेयः भूतल आसनम् अधिकरणं तत्र आधार आधेयभावः अस्ति इति वक्तुम् इच्छामः किन्तु तत्र सम्बन्धः कः इति भवति प्रश्नः अतः तत्र समवायसम्बन्धः नास्ति संयोगसम्बन्धः नास्ति अतः भिन्नसम्बन्धः भवेत् अतः एतस्य नूतनसम्बन्धस्य नाम स्वरूपसम्बन्धः इति कुर्मः
यत्र यत्र आधार आदेय एतद् विषयमस्ति तत्र सर्वत्र स्वरूपसम्बन्धः भवति वा
इले न न न न तादृशं नास्ति भगिनि पूर्वं तत्र संयोगसम्बन्धः यज्ञदत्तः आसने अस्ति तत्र तु संयोगसम्बन्धः अस्ति
अस्तु
इदानीं तत्र रूपं तत्र नीलरूपम् अस्ति नीलरूपं तत्र पुस्तके अस्ति इति चिन्तयतु तत्र नीलरूपं गुणः अस्ति गुणः द्रव्ये समवायसम्बन्धेन तिष्ठति अत्र तत्रापि आधारादेयभावः अस्ति किन्तु सम्बन्धः अस्ति समवायः यज्ञदत्तः आसने अस्ति तत्र आधारादेयभावः अस्ति किन्तु तत्र सम्बन्धः अस्ति संयोगः हा किन्तु इदानीम् आधार तत्र अभावः अस्ति घटाभावः अस्ति भूतले अस्ति किन्तु केन सम्बन्धेन संयोगसम्बन्धः न भवति समवायसम्बन्धः अपि न भवति अतः स्वरूपसम्बन्धः इति नामकरणम् इदानीम् अस्ति
महोदय अत्र अभावादिपदार्थानाम् इति दत्तमस्ति अत्र अभावादि नाम अभाव प्रतियोगिता अनुयोगिता
इति सत्यं सत्यं त्रयः एव हा हा सत्यं एतावत् अग्रे पश्यामः तत्र अन्येषां कृते अपि एतस्य सम्बन्धस्य आवश्यकता भवेत् किन्तु एतावत् सत्यमेव तत्र अभावः अनियोगिता प्रतियोगिता तेषां कृते आवश्यकम् अस्ति समीचीनं अस्तु अग्रे तत्र तत्र एकनिमेषः एव अस्ति अस्तु चिन्ता मास्तु अग्रे अग्रिमवर्गे पश्यामः इदानीं तत्र एतावत् तत्र केवलं तत्र प्रागभावः प्रध्वंस अभावः कः इति दृष्टवन्तः अपि तत्र अग्रिमवर्गे तत्र अन्योन्य अभावस्य वर्णनं भवति अपि तस्मात् प्राक् तत्र कारणकार्यभावः तत्र न्यायशास्त्रे कारणं किम् इति कथं निर्णेतुं शक्नुमः इति महत्त्वपूर्णप्रश्नः तत्र विज्ञाने अपि एतादृशप्रश्नः भवति तत्र किमपि भवति तस्य कारणं किम् इति किन्तु अत्र कारणं नाम किम् इति प्रश्नः कारणस्य लक्षणं किम् इति तत्र निकषाः के इति अग्रिमे वर्गे वयं द्रक्ष्यामः अस्तु तर्हि तत्र एकनिमिषं तत्र ध्वनिमुद्रं स्थगयामि तदनन्तरं पृच्छतु महोदय अस्तु